आत्मा त्वं गिरिजामति सहचरः प्राणशरीरगृहम् पूजते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पदयोः प्रदक्षिणविधिस्तोत्राणि सर्वागिरौ यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्।